इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। विदेशमन्त्री डॉ एस जयशंकरः यूक्रेन देशस्य समकक्षीयेण दमित्रो कुलेवा इत्यनेन समं अद्य नवदिल्ली नगरे चर्चां कृतवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् डिजिटल सार्वजनिक संरचना स्वतः एव महती आवश्यकता अस्ति, तथा च सर्वकारः डिजिटल सुविधाः सर्वेषु ग्रामेषु विस्तारयति। सर्वकारेण सर्वेभ्यः व्यापारिभ्यः गोधूमस्य भण्डारणस्थानम् अनिवार्यरूपेण घोषयितुम् आदेशः दत्तः अस्ति। जम्मूतः श्रीनगरं प्रति गच्छद् यात्रीवाहनं शुक्रवासरे जम्मू श्रीनगर राष्ट्रिय राजमार्गे गभीरगर्ते अपतत्। अस्यां दुर्घटनायां न्यूनातिन्यूनं 10 जनाः मृताः। अद्य सम्पूर्णे विश्वे गुड फ्राइडे आचर्यते। दिवसोऽयं येशु मसीहस्य शूले स्थापन दिवसत्वेन आमान्यते। बैडमिंटन क्रीडायां भारतीय क्रीडिका पीवी सिंधु अद्य सायं मैड्रिड स्पेन मास्टर्स इत्यस्य महिला एकल प्रागुपान्त चक्रीय क्रीडायां थाईलैंड देशस्य सुपनीदा कोटेथोंग इत्यनया सह स्पर्धिष्यति। अपि च आईपीएल प्रतिस्पर्धायां अद्य सायं बेंगलुरुनगरस्य एम चिन्नास्वामी क्रीडांगणे रॉयल चैलेंजर्स दलं कोलकाता नाइट राइडर्स दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। विदेशमन्त्री डॉ एस जयशंकरः यूक्रेन देशस्य समकक्षीयेण दमित्रो कुलेवा इत्यनेन समं अद्य नवदिल्ली नगरे एकस्मिन् सत्रे रूस यूक्रेन संघर्षस्य विषये व्यापक शाखा विषये च चर्चां कृतवान्। आभासीय माध्यमेन डॉ जयशंकरः अवदत् यत् सः परस्पर हित सम्बन्धे वैश्विक क्षेत्रीय विषयेषु च चर्चाम् अकरोत्। सः द्विपक्षीय च सहकार्य सहितं समग्र सम्बन्धं सुदृढं कर्तुं भारतस्य प्रतिबद्धतां पुनः स्मारितवान्। सम्मेलनावधौ स्वस्य उद्घाटन वक्तव्ये डॉ जयशंकरः अवदत् यत् यूक्रेन देशस्य विदेशमन्त्रिणः भारत यात्रा यूक्रेन देशस्य स्थितिं ज्ञातुम् अवसरः प्राप्यते। सः अवदत् यत् गतमासैः तेषां विभिन्नस्तरयोः अन्तःक्रिया अभवन्, केचन द्विपक्षीय तन्त्राणि अपि मिलितानि येन द्विपक्षीय सम्बन्धेषु जवता उत्पन्ना। यूक्रेन देशस्य विदेशमन्त्री ह्यः द्विदिवसीय यात्रायां भारतम् आगतो वर्तते। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् डिजिटल सार्वजनिक संरचना स्वतः एव महती आवश्यकता अस्ति, तथा च सर्वकारः डिजिटल सुविधाः सर्वेषु ग्रामेषु विस्तारयति। परोपकारिणा विलगेट्स इत्यनेन सह संवादं कुर्वन् श्रीमोदी अवदत् यत् कृषिक्षेत्रे स्वास्थ्ये शिक्षायां च प्रौद्योगिक्याः महती भूमिका भवितुमर्हति। प्रधानमन्त्री अवदत् यत् यदा सः विश्वे अंकीय विभाजनस्य विषये शृणोति स्म तदा सः निश्चयं कृतवान् यत् भारते एतादृशं किमपि न भवितुम् अर्हति इति। कृत्रिम मेधायाः आर्टिफिशियल इंटेलिजेंस इत्यस्मिन् विषये तेनोक्तं यत् यदि वयम् आलस्य कारणेन एआई इत्येतत् तस्मिन् अवलम्बमहे तर्हि अयम् असमीचीनः मार्गः एव। सः इदमपि अवदत् यत् यदि ऐन्द्रजालसाधनरूपेण उपयुक्ते तर्हि एआई सम्भवतः गंभीरम् अन्यायं जनयिष्यति। सः अवदत् यत् एआई इत्येतत् एतादृशम् उत्तमं साधनम् अस्ति, परन्तु यदि सम्यक् प्रशिक्षणं विना कस्मैचित् दीयते तर्हि तस्य दुरुपयोगस्य सम्भावना वर्तते। प्रधानमन्त्रिणा उक्तं यत् जनानां चैट जीपीटी इत्यनेन सह स्पर्धा भवितुमर्हति, एआई इत्यस्मात् अग्रे गन्तुं च प्रयत्नः करणीयः। श्रीमोदी अवदत् परामर्शम् अयच्छत् यत् एआई जनित सामग्रीषु स्पष्ट जल चिह्नानि भवेयुः, येन कोऽपि भ्रमितः न भवेत्। स्वास्थ्यस्य विषये वदन् प्रधानमन्त्रिणा उक्तं यत् ग्राम्येषु प्रायः लक्षद्वयम् आयुष्मान आरोग्य केन्द्राणि निर्मितानि सन्ति, तथा च एतानि स्वास्थ्य केन्द्राणि सेतुरूपेण आधुनिक प्रौद्योगिक्या उत्तम चिकित्सालयैः सह सम्बद्धानि सन्ति। सः अवदत् यत् भारतेन एकाधिकारं निवारयितुं प्रौद्योगिक्याः लोकतन्त्रीकरणं कृतमस्ति, एतज्जनैः जनानां कृते च अस्ति। श्रीमोदी भारते नूतन प्रौद्योगिक्याः स्वीकरणाय महिलाः मुक्ताः सन्ति इति उक्तवान्। सः अवदत् यत् नमो ड्रोन दीदी योजना अतीव सफलतया प्रचलति। सः अवदत् यत् मानसिकता परिवर्तिता अस्ति यो हि इदानीं यदा सः नमो ड्रोन दीदी इत्यनेन सह संवादं करोति तदा ताः वदन्ति यत् ताः द्विचक्रिका चालनं न जानन्ति स्म, किन्तु अधुना विमान चालिकाः सन्ति, ड्रोन उड्डयनं कर्तुं शक्नुवन्ति। सर्वकारेण गोधूमस्य भण्डारण स्थानम् अनिवार्य रूपेण घोषयितुम् आदेशः दत्तः अस्ति। उपभोक्तृ कार्याणां खाद्य लोक वितरण मन्त्रालयः सर्वेष् राज्यानां तथा च केन्द्रशासित प्रदेशानां व्यापारिभ्यः समग्र विक्रेतृभ्यः बृहत् श्रृंखला विक्रेतृभ्यः संसाधकेभ्यश्च गोधूमस्य स्वस्य भण्डारण स्थानं प्रथम अप्रैलतः प्रभाविरूपेण अग्रिमादेशपर्यन्तं घोषयितुम् आदिशत्। समग्ररूपेण खाद्य सुरक्षायाः प्रबन्धनार्थं संग्रहणं अनुमानं निवारयितुं च एषः निर्णयः कृतः अस्ति। सर्वेषां वर्गाणां संस्थाभिः तण्डुल संचय घोषणा पूर्वमेव स्थापिता अस्ति, यापि संस्था मन्त्रालयेन प्रदत्ते पटले पञ्जीकृता नास्ति। सा स्वयमेव पञ्जीकरणं कृत्वा प्रतिशुक्रवासरे गोधूमस्य तण्डुलस्य च भण्डारणस्य प्रकटीकरणम् आरभेत्। खाद्य सार्वजनिक वितरण विभागः गोधूमस्य तण्डुलस्य च भण्डारस्थितेः निकटतया निरीक्षणं कुर्वन् अस्ति यत् मूल्यानि नियन्त्रयितुं देशे सुलभतया उपलब्धतां च सुनिश्चितां करोति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। जम्मूतः श्रीनगरं प्रति गच्छत् यात्रीवाहनं शुक्रवासरे जम्मू श्रीनगर राष्ट्रिय राजमार्गे रामवन मण्डलस्य बैटरी चेस्मा समीपे गभीरगर्ते अपतत्। अस्यां दुर्घटनायां न्यूनातिन्यूनं 10 जनाः मृताः। अस्माकं वार्ताहरः उक्तवान् यत् अर्धरात्रेः किञ्चित् कालानन्तरं दुर्घटना अभवत्, यदा कर्मकरान् बृहद् एकं वाहनम् एकसहस्रमितात्मक पादगभीरे गर्ते अपतत्। स्थानीयाधिकारिणः शीघ्रमेव दुर्घटनास्थलम् आगताः, परन्तु क्षेत्रे आह्वानपूर्णस्य भूभागस्य अन्धकारस्य निरन्तरवृष्टेः च कारणात् तत्क्षणमेव उद्धारप्रयासान् कर्तुं न शक्नुवन्तः। अधुना यावत् गभीरगर्तात् 10 शवाः प्राप्ताः सन्ति। भूभागः कठिनः इति कारणतः स्थानान्तरणं क्रियते। मृतेषु प्रायः अधिकाः बहिष्टाद् आगताः कर्मकराः सन्ति ये कार्यार्थं कश्मीरं प्रति आगताः सन्ति। मृतानां सटीकसंख्या जीवितानां केषाञ्चन स्थितिश्च अद्यापि अज्ञाता अस्ति। उद्धारकार्यक्रमः प्रचलति, अधिकविवरणं प्रतीक्षते। अद्य सम्पूर्णे विश्वे गुड फ्राइडे आचर्यते। दिवसोऽयं येशु मसीहस्य शूले स्थापन दिवसत्वेन आमान्यते। अस्मिन् दिने येशु मसीह मानवजातेः पापानां निवारणाय प्रेम्णः च कृते दुःखं प्राप्य स्वप्राणानां बलिदानं कृतवान्। ईस्टर रविवासरात् पूर्वं शुक्रवासरे एतद् आचर्यते, यद्धि येशु मसीहस्य पुनरुत्थानस्य प्रतीकभूतं भवति। चर्च चैपल मध्ये प्रार्थनाः सामूहिक समारोहाः च आयोजिताः सन्ति। दिनमिदं पवित्र शुक्रवासरः, महाशुक्रवासरः, कृष्णशुक्रवासरः, ईस्टर शुक्रवासरः च इति नाम्ना अपि ज्ञायते। गुड फ्राइडे इत्यस्य अवसरे जनाः परस्परं बलं सुखं च कामयन्ति। बैडमिंटन क्रीडायां भारतीय क्रीडिका पीवी सिंधु अद्य सायं मैड्रिड स्पेन मास्टर्स इत्यस्य महिला एकल प्रागुपान्त चक्रीय क्रीडायां थाईलैंड देशस्य सुपनिदा कटेथोंग इत्यनया सह स्पर्धिष्यति। पुरुष युगल स्पर्धायां ध्रुव कपिला एम आर अर्जुनयोः भारतीय युगलः अन्तिमाष्ट संघर्षेष् मलेशिया देशस्य जे आरिफ आर के याप इत्युभाभ्यां सह स्पर्धिष्यत। आईपीएल प्रतिस्पर्धायाम् अद्य सायं बेंगलुरूनगरस्य एम चिन्नास्वामी क्रीडांगणे रॉयल चैलेंजर्स दलं कोलकाता नाइट राइडर्स दलं सम्मुखीकरिष्यति। स्पर्धा अद्य सायं 7:30 वादनात् समारप्स्यते। इति वार्ताः।